नमस्सर्वेभ्यः। अद्य छन्दोवर्गस्य पञ्चमः पाठः। अस्मिन् पाठे वयम् इन्द्रवज्रवृत्तस्य लक्षणं पठामः। कानिचन उदाहरणानि दृष्ट्वा तेषु कथं लक्षणस्य समन्वयः भवति इत्यपि पश्यामः। एतत् स्मर्तव्यम्, एतावता वयं छन्दस्सु अक्षराणां गणना कथं क्रियते, लघु गुरु अक्षराणाम् अभिज्ञानं कथं कर्तव्यम्, लघुगुरुप्रस्तारं विलिख्य गणविभागः कथं क्रियते, गणानां नामानि कानि भवन्ति इति ज्ञातवन्तः। एतत् सर्वं ज्ञात्वा एव अग्रे गन्तुं शक्नुमः। इतः परं प्रसिद्धानि काव्येषु प्रसिद्धानि कानिचन समवृत्तानि वयं पठामः इति उक्तवती। तत्र प्रथमं वृत्तं भवति इन्द्रवज्रा इति। इन्द्रवज्रवृत्तस्य लक्षणं भवति स्यादिन्द्रवज्रा यदितौ जगौगः। पुनः वदामि, स्यादिन्द्रवज्रा यदितौ जगौगः। एतेषु वृत्तेषु यत् लक्षणम् इति उच्यते, तत्र वृत्ते के के गणाः भवन्ति इति उच्यते, यतिः अस्ति चेत् कुत्र यतिः भवति इति उच्यते। अपरः विशेषः, एतानि सर्वाणि लक्षणानि वृत्तरत्नाकरग्रन्थात् स्वीकृतानि। यस्य वृत्तस्य लक्षणं कथ्यते तत् लक्षणं तस्यां पङ्क्तौ, अर्थात् स्यादिन्द्रवज्रा यदितौ जगौगः इति अस्यां पङ्क्तौ इन्द्रवज्रावृत्तस्य लक्षणम् अस्ति। इदं लक्षणमपि इन्द्रवज्रावृत्ते एव निबद्धमस्ति। अतः लक्षणे, लक्षणवाक्ये वयं लघुगुरुप्रस्तारं विलिख्य गणविभागं कुर्मः चेत् तत्रैव तस्य वृत्तस्य कः नियमः इति ज्ञातुं शक्यते। अतः आदौ अत्र पश्यामः, स्यादिन्द्रवज्रा यदितौ जगौगः इति वाक्यम्। तत्र स्या इति दीर्घः भवति, अतः गुरु भवति। दि इति ह्रस्वः, किन्तु अग्रे न द र संयोगः अस्ति, अतः अयमपि गुरुः। द्र ह्रस्वः, अग्रे संयोगः नास्ति, अतः लघुः। व ह्रस्वः, अग्रे ज र संयोगः, अतः गुरुः। ज्रा गुरुः। य लघुः। दि लघुः। तौ गुरुः। ज लघुः। गौ गुरुः। गः गुरुः। लघु गुरु प्रस्तारं कृत्वा गणविभागः, त्रयाणाम् अक्षराणाम् एकः गणः, एवं च एकं द्वे त्रीणि, एकं द्वे त्रीणि, एकं द्वे त्रीणि, अन्ते गुरुद्वयम् अस्ति। कः गणः? अत्र अन्ते लघुवर्णः अस्ति। तत् स्मरामः, गणज्ञानं कथं भवति? आदिमध्यावसानेषु यरता यान्ति लाघवम्। सो आदिलघुः, मध्यलघुः, अन्त्यलघुः। भजसा गौरवं यान्ति। सो भजस इत्यत्र आदिगुरुः, मध्यगुरुः, अन्त्यगुरुः। सो अत्रयं लघु अन्त्यलघुः तगणः। सो प्रथमः गणः तगणः, द्वितीयः स एव गुरुः, गुरुः, लघुः, अन्त्यलघुः, तगणः। तृतीयः मध्यगुरुः, मध्यगुरुः, जगणः, ज। अन्ते ग, ग। लक्षणं किं वदति? स्यात् इन्द्रवज्र, इन्द्रवज्रवृत्तं भवति। कदा भवति? यदि तौ, तौ इत्युक्ते त त द्वौ तगणौ, ज गौ द्वौ तगणौ, अनन्तरं जगणः ग इत्युक्ते गुरुः जगौ जगौ गः अन्ते एकः गुरुः एवं त त ज गणाः अन्ते गुरुद्वयम् अस्ति चेत् तस्य वृत्तस्य नाम भवति इन्द्रवज्रा इन्द्रवज्रा वृत्ते त्रयः गणाः इत्युक्ते नव अक्षराणि दश एकादश प्रतिपादम् एकादश अक्षराणि भवन्ति प्रस्तारः भवति त त ज गणाः गुरुद्वयं च एकम् उदाहरणं पश्यामः तत्र कथम् इदं लक्षणं सङ्गच्छते इति लोकाभिरामं रणरङ्गधीरं राजीवनेत्रं रघुवंशनाथं कारुण्यरूपं करुणाकरं तं श्रीरामचन्द्रं शरणं प्रपद्ये अयं श्लोकः श्रीरामस्य स्तुतिः इन्द्रवज्रा छन्दसि निबद्धमस्ति तत्र एकस्मिन् पादे अहं प्रस्तारं विलिख्य दर्शयामि अग्रे भवन्तः अभ्यासं कुर्वन्तु लोकाभिरामं रणरङ्गधीरं लो गुरुः का गुरुः भी लघुः रा मम अनुस्वारः अस्ति अतः गुरुः र इति लघुः न लघुः र ह्रस्वः किन्तु अग्रे संयोगः अतः गुरुः ग लघुः धीरम् इति गुरुद्वयम् सो गणान् कुर्मः चेत् एवं त्रेधा अक्षराणां विभागः अन्त्यलघुः तगणः पुनः अन्त्यलघुः तगणः मध्यगुरुः जगणः गुरुद्वयम् एकादश अक्षराणि त त जगणाः गुरुद्वयम् अतः अत्र वृत्तम् इन्द्रवज्रा अन्येषु पादेषु अभ्यासं कुर्वन्तु एवमेव अन्यमेकं श्लोकं पश्यामः चम्पूरामायणस्य अयं श्लोकः अस्ति अस्ति प्रशस्ता जनलोचनानाम् आनन्दसन्दायिषु कोसलेषु आज्ञासमुत्सारितदानवानाम् राज्ञामयोध्येति पुरीरघूणाम् अयोध्या इति पुरी अयोध्यायाः वर्णनं क्रियते भोजेन सो अत्रापि पश्यन्तु अ अग्रे संयोगः अतः गुरुः स्ति पुनः अग्रे संयोगः अतः गुरुः प्र श संयोगः अस्ति ता ज न लोच नाना अस्ति प्र श ताज न लोच नाना ततज गुरुः गुरुः एवञ्च इन्द्रवज्रा इति वृत्तं भवति तस्मिन् वृत्ते प्रतिपादम् एकादश अक्षराणि भवन्ति ततज गणाः अन्ते गुरुद्वयं च भवति इन्द्रवज्रा वृत्तस्य लक्षणमस्ति स्यादिन्द्रवज्रा यदितौ जगौगः अभ्यासपत्रे काश्चन पङ्क्तयः दीयन्ते तत्र प्रस्तारं विलिख्य कासु कासु पङ्क्तिषु इन्द्रवज्रा वृत्तस्य लक्षणम् अस्ति इति अभिज्ञातव्यम्